एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। राष्ट्रपतिना विद्यादेवी भण्डारिणा मन्त्रिपरिषदः परामर्शे प्रतिनिधिसभा विघटिता वर्तते। संविधानस्य षड्सप्ततितम्याः धारायाः प्रथम सप्तमोपधारयोः पञ्चाशीतितम्याः धारायाः संसदीय प्रणाल्याः आधारभूत मर्म मूल्यमान्यतानाम् अवलम्बित संसदीय प्रणालीनाम् विभिन्नानाम् राष्ट्राणाम् अभ्यासस्य च अनुसारेण प्रतिनिधिसभाम् विघटय्य नवीन जनादेशाय जनतायाः समक्षम् गन्तुम् मन्त्रिपरिषदा विहितस्य परामर्शनस्य अनुसारेण राष्ट्रपतिना प्रतिनिधिसभा विघटितेति राष्ट्रपतेः कार्यालयेन ज्ञापितम् वर्तते। नवीन जनादेशाय अष्टसप्तत्यधिक द्विसहस्रतम विक्रमाब्दस्य वैशाख मासस्य सप्तदशे दिवसे शुक्रवासरे प्रथम चरणे, वैशाखस्य सप्तविंशे दिवसे सोमवासरे द्वितीय चरणे च प्रतिनिधिसभायाः निर्वाचनस्य सम्पादनत्वेन दिनांकाः निर्धारिताः सन्तीति च राष्ट्रपति कार्यालयेन प्रकाशितायां विज्ञप्तौ ज्ञापितमस्ति। तत्पूर्वं मन्त्रिपरिषदः उपवेशेन संघीय संसदः प्रतिनिधिसभायाः विघटनाय परामृष्टुं निर्णीतमासीत्। बाल्वाटारवर्तिनी प्रधानमन्त्रिनिवासे गतदिने पूर्वाह्ने उपविष्टेन मन्त्रिपरिषदः आकस्मिकोपवेशेन राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं प्रतिनिधिसभायाः विघटनाय परामृष्टुं निर्णीतमासीत्। प्रतिनिधिसभायाः विघटनस्य निर्णये असहमतिं ज्ञापयित्वा सर्वकारस्य सप्तभिः मन्त्रिभिः सामूहिक त्यागपत्रं प्रदत्तमस्ति। शिक्षा विज्ञान प्रविधि मन्त्रिणा गिरिराजमणि पोखरेलेन, ऊर्जो जलस्रोत सिञ्चन मन्त्रिणा वर्षमान पुन इत्यनेन, कृषि पशुपक्षी विकास मन्त्रिणा घनश्याम भूषालेन, संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा योगेश कुमार भट्टराई इत्यनेन, वन वातावरण मन्त्रिणा शक्तिबहादुर बस्नेतेन, श्रमवृत्ति सामाजिक सुरक्षा मन्त्रिणा रामेश्वर राय यादवेन, पेयजल स्वच्छीकरण मन्त्रिणा बीना मगर इत्यनया च ह्यः सिंहप्रासादे पत्रकार सम्मेलनमायोज्य त्यागपत्रं प्रदत्तमिति ज्ञापितं वर्तते। नेपाली कांग्रेस दलेन मन्त्रिपरिषदा प्रतिनिधिसभां विघटय्य वैशाखे मध्यावधि निर्वाचनस्य सम्पादनत्वेन विहितो निर्णयः राष्ट्रस्य अस्थिरताम् अराजकताञ्च प्रतिनयनस्य कार्यमस्तीति उक्तं वर्तते। भूडानीलकण्ठवर्तिनी दलसभापतेः शेरबहादुर देवाविदस्य निवासे केन्द्रीय कार्यसमितेः पदाधिकारिणां पूर्वपदाधिकारिणां च ह्यः उपविष्टेन उपवेशेन मन्त्रिपरिषदः परामर्शनस्य राष्ट्रपतिना स्वीकृतेश्च घटनायां दलस्य गभीरं ध्यानम् आकृष्टमस्तीति बोधयता अनेन निर्णयेन संघीय लोकतान्त्रिक गणतन्त्रात्मक संविधान त्रोटनस्य राष्ट्रस्य असफलतां प्रतिनयनस्य च कार्यं विहितमिति आरोपितं वर्तते। विगतस्य निर्वाचने स्थिरतायाः शान्तेः समृद्धेश्च समाघोषं प्रदाय आसन्न द्वितृतीयांश जनमतानि प्राप्तेन वर्तमान सर्वकारेण जनतातः प्राप्त जनादेशस्य अपमानो विहित इति कांग्रेसदलेन टिप्पणी विहितास्ति। कोविड उनविंशतेः महामार्याः जनतायाः सर्वाधिक पीडायाः स्थितौ नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य सर्वकारः जनजीविकायाः सौविध्यस्य च विषयात् विमुख निरपेक्षश्च भूत्वा स्वस्य पदाय शक्तै च सत्ता संघर्षे केन्द्रितो भवदिति आरोपितं वर्तते। अत्रान्तरे नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः उपवेशा स्व पौषस्य सप्तमे दिवसे वस्ता। सानेपा वर्तिनी दलस्य केन्द्रीय कार्यालये स्व अपराह्नस्य एकवादने उपवेक्ष्यमाणे उपवेशे राष्ट्रस्य पश्चात्तन राजनीतिक विषय विमृक्ष्य इति नेपाली कांग्रेस दलस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः अज्ञापयत्। नेपाल कम्युनिष्ट पार्टी नेपाली कांग्रेस जनता समाजवादी पार्टी दलैः सर्वकारस्य पश्चात्तन कार्यं विरोद्धं निर्णीतं वर्तते। सिंहप्रासादे गतदिने उपविष्टेन संयुक्तोपवेशेन सर्वकारस्य पश्चात्तन कार्यं विरोद्धं निर्णीतं वर्तते। प्रधानमन्त्रिणा केपी शर्मा ओलिना गतदिने मन्त्रिपरिषदः उपवेशस्य माध्यमेन प्रतिनिधिसभां विघटय्य नवीन जनादेशाय निर्वाचनं विधातुं राष्ट्रपतेः समक्षं परामृष्टमासीत्। अनुपवेशं नेकपा दलस्य प्रवक्तुः नारायणकाली श्रेष्ठस्य अनुसारेण संसदो विघटनकारिणं सर्वकारस्य निर्णयं संयुक्तरूपेण विरोद्धं सहमतिर्धृता वर्तते। एवमेव राष्ट्रिय प्रजातन्त्र दलेन प्रतिनिधिसभायाः विघटनकारी नेकपा दलीय नेतृत्वस्य सर्वकारस्य निर्णयः संविधानस्य प्राजातान्त्रिक मूल्यमान्यतानां च विपरीतो स्थिति ज्ञापितं वर्तते। दलस्य केन्द्रीय सचिवालय कार्यव्यवस्था समितेः ह्यः उपविष्टेन आकस्मिकोपवेशेन सत्तारूढस्य नेकपा दलस्य आभ्यन्तर विवादस्य विग्रहस्य च कारणेन देशः अस्थिरतायाः अराजकतायाश्च विवर्ते निपतित इति निर्णीतं वर्तते। जनता समाजवादी दल नेपालेन प्रधानमन्त्रिणः परामर्शे राष्ट्रपतिना विहितं प्रतिनिधि सभाया विघटनम प्रति गभीरम ध्यानाकर्षणम सम्भूतमस्तीति ज्ञापितम वर्तते। अनेन दलेन गतदिने विज्ञप्तिम प्रकाश्य प्रतिनिधि सभाया विघटनम संसदीय लोकतन्त्रे सांविधानिक व्यवस्थायं च विहित्व गभीर प्रहारो स्थिति निश्चितं वर्तते। कार्यमेतत् विरुध्य जनता समाजवादी दलेन सम्पूर्ण दलीय पंक्तिः नागरिकाश्च एतत् कार्यं प्रतिबद्धितुम् अपि अनुरुद्धाः सन्ति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य स्थायी समिति ह्यस्तनोपवेशन दलाध्यक्षाय प्रधानमन्त्रिणे च केपी शर्मा ओलीने अनुशासनस्य दण्डन प्रस्तावं केन्द्रीय समितेः उपवेशे प्रस्तोतुं निर्णीतमस्ति। केन्द्रीय समितेः उपवेशं स्वपौषस्य सप्तमे दिवसे आह्वातुं स्थायी समितेः उपवेशेन निर्णीतम् अस्तीति प्रवक्ता नारायणकाली श्रेष्ठः अज्ञापयत्। उपवेशेन पूर्वसभामुखं कृष्णबहादुर महाराविदं स्थायी समितेः सदस्यं कारयितुं केन्द्रीय समितेः उपवेशे प्रस्तावं नेतुं निर्णीतमिति च प्रवक्ता श्रेष्ठ ज्ञापितवान्। प्रधानमन्त्रिणा केपी शर्मा ओलिना नूतन जनादेशस्य कृते सम्पत्स्यमानाय प्रतिनिधि सभायाः निर्वाचनाय सर्वकारस्य पक्षतः निर्वाचनायोगाय आवश्यकाः सर्वे सहयोगाः विधीयन्ते इति ज्ञापितं वर्तते। प्रधानमन्त्री निवासे बालवाटार स्थाने ह्यो निर्वाचनायोगस्य प्रमुखायुक्तेन आयुक्तैश्च सह विहिते मेलने प्रधानमन्त्री ओली निर्वाचनायोगेन स्वतन्त्रं निष्पक्षञ्च निर्वाचनं विधातुं सर्वेऽपि उपायाः अवलम्बिष्यन्ते इति विश्वासं व्यक्तवान्। मेलने प्रमुख निर्वाचन आयुक्त दिनेश थपलिया नूतन जनादेशाय सम्पत्स्यमानं निर्वाचनम् एकस्मिन्नेव दिनांके विहितं सद् मितव्यय व्यवस्थापनाय सहजं च भविष्यति स्म इति अवोचत इति निर्वाचन आयोगेन ज्ञापितं वर्तते इति समाचारः।